सर्वेभ्यो नमस्कारः. एतत् स्पोकन् संस्कृत् वर्गः. गतवर्गे वयं भूतकालरूपाणि कृतवन्तः. एतत् सरलभूतकालरूपम् इति पठति इति तस्य भूतकालरूपं पुल्लिङ्गे पठितवान्, स्त्रीलिङ्गे पठितवती. एतत् एकवचने, अपि बहुवचने पठितवन्तः. पुल्लिङ्गे अपि स्त्रीलिङ्गे पठितवत्यः इति अस्ति. तस्य किञ्चित् अभ्यासं कृतवन्तः. पुटसङ्ख्या 38-39 मध्ये, अपि 40 मध्ये किं किम् आसीत् तद् गतसप्ताहे कृतवन्तः. अद्य अपि तस्यैव किञ्चित् अभ्यासं कृत्वा अग्रे गच्छामः इति कार्यक्रमः अस्ति. भविष्यत्कालरूपाणि अपि पश्यामः इति. किन्तु तस्य पूर्वं यत् भूतकालरूपाणि यत् अस्ति तस्य गृहपाठः आसीत् भूतकालरूपाणि उपयुज्य दशवाक्यानि लिखतु. अपि अस्ति, सन्ति, अस्मि, स्मः, आसीत्, आसन्, आसम्, आस्म इति. तस्य अपि तदपि भूतकालरूपम् अस्ति. त उपयुज्य अष्टवाक्यानि लिखतु इति. प्रथमं भूतकालरूपाणि पठितवत्यः इति, तादृशरूपस्य दशवाक्यानि तत् प्रथमं शृण्मः. कः वक्तुम् इच्छति प्रथमम्?
अहं करोमि.
हा, सरला भगिनी, अस्तु भगिनी, करोतु. हा,
गतसप्ताहे वयं भूतकालरूपाणि पठितवन्तः. महोदय उक्तवान् गृहपाठं कुर्वन्तु इति.
समीचीनं भगिनी, अस्तु.
सा मधुरसं पीतवती. एषः कथां लिखितवान्. मम माता भोजनम् आनीतवती. ते चलचित्रं दृष्टवन्तः.
चलनचित्रम्.
अहं पृष्टवती यत् कथं संस्कृतं सुलभतया स्मरणीयम्. गुरुः काम क्रोध लोभ मोह इत्यादि त्यक्तवान्. रमा
कामं मोहम् इति प्रायः द्वितीयविभक्तौ प्रायः भगिनि तत्र त्यक्तवान् इति क्रिया
कामं सकमर्क भवति.
कर्मपदं भवति अत्र.
अस्तु. महिला याचकाय भिक्षां दत्तवती. शिक्षकस्य आगमने सर्वे विद्यार्थिनः उत्थितवन्तः.
समीचीनं भगिनि, धन्यवादः. अपि अस्ति चेत्
अहं सर्वे कृतवती. सर्वे क्रियापदानि दत्तमस्ति.
अस्तु अस्तु अस्तु. वयम् अन्य अस्तु, अन्य कोऽपि वदतु. धन्यवादः भगिनि, बहु समीचीनमस्ति. नरेशमहोदय वदतु.
रमेशः क्षीरं पीतवान्. छात्राः पाठं लिखितवन्तः. सीता गद्यम् उक्तवती. भवती किं दृष्टवती? भवान् गृहकार्यं कृतवान्. ते भाषणं श्रुतवन्तः. सख्यः पुस्तकानि गृहीतवत्यः. रमा शिक्षकं पृष्टवती. भवत्यः गृहं गन्तुं शक्तवत्यः. सीता किं खादितवती?
समीचीनं महोदय, बहु समीचीनं. हा, धन्यवादः. अन्य कोऽपि वक्तुमिच्छति वा? अस्तु
आम् आम् उक्तवान्
अस्तु रघुपतिमहोदय रघुपतिमहोदय करोतु
रामः पुस्तकं पठितवान् रामाः पुस्तकं पठितवन्तः रमा पुस्तकं पठितवती रमाः पुस्तकं पठितवत्यः लिखति रामः लेखनं लिखति रामः लेखनं लिखितवान् रामाः लेखनं लिखितवन्तः रमा लेखनं लिखितवती रमाः लेखनं लिखितवत्यः नयति रावणः सीतां नीतवान् वृद्धा कूपात् जलं नीतवती वृद्धाः कूपात् जलं नीतवत्यः भवतः बोधनक्रमः सम्यक् अस्ति वयं सर्वे संस्कृतवर्गस्य विद्यार्थयः स्मः काश्मीरराज्ये इदानीं बहवः आततायिनाः सन्ति आसीत् अहं चलनचित्रमन्दिरं गतवान् आसम् परन्तु तदा चित्रमन्दिरं पूर्णमासीत् आसन् मम ग्रामे बहवः वृक्षाः आसन् इदानीं तु ते नास्ति आसम् वयं सर्वे गतवर्गे सम्भाषणसन्देश इति नाम्ना पत्रिकात् एकं कथां पठितवन्तः आस्म
आस्म समीचीनं महोदय धन्यवादः समीचीनमस्ति अस्तु नमस्कारः नूतनतया के आगतवन्तः नामानि उच्यतां
नमस्ते महोदय अहं वंशीसुधा अस्मि
वंशीसुधा भगिनी नमस्कारः
अस्तु
गृहपाठं अन्य कोऽपि वक्तुम् इच्छति वा
अहं करोमि
वेणुगोपाल महोदय करोतु करोतु महोदय
अहं ह्यः एकं चलनचित्रं दृष्टवान् आवां याः गृहकार्यं कृतवान्
कृतवन्तौ इति भवति
कृतवन्तौ
तत्र भवान् भवन्तौ भवन्तः तादृशरूपमस्ति
वयं दशदिनपूर्वे गृहम् आभवाम् दशदिनं पूर्वे गृहम् आभवाम सोरि
अस्तु 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 अभवाम इति अभवाम इति
आस्म भवति तत्र
तत्र तत् वयं न कृतवन्तः महोदय अग्रे कुर्मः तत्र केवलम् अभवत् अभवन् इति तदेव रूपं वदतु इदानीं अग्रे गत्वा तत् पश्यामः
ते गतदिनं मम गृहम् आभवन्
अभवन्
अहं सर्वे
सर्वाणि वाक्यानि यदि अस्ति चेत् सः इति करोतु
अस्तु मम भगिन्याः भूमौ आपतत् भगिन्याः याः भूमौ आपतत्
भूमौ आपतत् इत्युक्ते तत्र अस्तु 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 किन्तु तत्र भूम्यौ पतितवती इति महोदय यद् भवान् वदति तत् सत्यमेव किन्तु अत्र सुलभभूतकालरूपम् इति वयं कुर्मः अतः पतितवान् पतितवती तादृशरूपं कुर्मः इदानीं
सः गृहे न आभवन् किन्तु
गृहे न आसीत्
गृहे न आसीत् किन्तु पुस्तकालये आगतवान्
पुस्तकालयम् आगतवान्
पुस्तकालयम् आगतवान् अस्तु तौ फलानि ह्याः न खादत् क्षम्यतां महोदय रूपाणि किञ्चित्
वाक्यानि
ते फलानि ह्याः न खादितवन्तः
अथवा खादितवत्यः ताः क्षम्यतां ते इति खादितवन्तः खादितवन्तः
ते कार्यालयं न गत्वा कुत्र अपि
न
कथितवन्तः कुत्रापि गतितवन्तः
गतवन्तः कुत्रापि न गतवन्तः
अस्तु अस्तु महोदय
धन्यवादः महोदय अत्र सुलभक्रियापदम् इति तावदेव यद् भवान् उक्तवान् तद् समीचीनं किन्तु अत्र सुलभम् अस्तु
मम समीपे पुस्तकं नास्ति
अस्तु अस्तु किन्तु ईमेल् मध्ये अहं प्रेषितवान् लिङ्क् सर्वदा यदि एलेक्ट्रानिक् कापि तत्र लभ्यते सङ्गणके अस्तु धन्यवादः महोदय अन्य कोऽपि वक्तुम् इच्छति वा
अहं वदामि महोदय
अस्तु अस्तु वंशीसुतभगिनी करोतु वदतु
अस्ति प्रथमः एषः भारतदेशः अस्ति सन्ति प्रयोगः अत्र अनेकाः भाषा विविधानि मतानि च सन्ति अस्मि अहं भारतीय अस्मि वयं सर्वे अपि भारतीयाः स्मः आसीत् प्रयोगे रात्रौ निद्रा सम्यक् आसीत् आसन् ह्यः छात्राः कक्षां श्रुतवन्तः लिखितवन्तः च आसन्
कक्षायां
श्रुतवन्तः लिखितवन्तः च आसन् आसम् अहं सोमवासरे मन्दिरं गतवती आसम् आस्म वयं सर्वे संस्कृतगृहपाठं कृतवन्तः आस्म
समीचीनं भगिनि धन्यवादः अन्य कोऽपि वक्तुम् इच्छति वा गृहपाठः भूतकालरूपाणि वा अस्तु प्रिया भगिनि वदतु भगिनि वदतु
छात्रा पाठाः पठितवती वृक्षात् फलानि पतितवन्तः महिलाः प्रश्नस्य उत्तरम् उक्तवत्यः अनुजः पानीयं पीतवान् अध्यापिकाः गृहपाठं लिखितवयः अग्रजा घटाः नीतवती युवत्यः
क्षम्यतां भगिनि पूर्वं वाक्यं किम् आसीत्
अग्रजा घटः नीतवती
तत्र घटः इति कर्मपदं भवति इति
घटं क्षम्यतां
घटं
युवत्यः दूरवाणीं त्यक्तवत्यः शिक्षिकाः सर्वं ज्ञातवत्यः मन्दिरे ते प्रवचनं श्रुतवन्तः गुरुपत्न्यः दक्षिणां गृहीतवत्यः अस्ति सन्ति वाक्यानि
तदपि वदतु वदतु भगिनि
अस्तु एषः आसन्दः अस्ति एतानि पुस्तकानि सन्ति परह्यः अत्र सम्यक् वृष्टिः आसीत्। काशीनगरे कुम्भमेलासमये बहवः जनाः आसन्। अहं संस्कृतं पठन्ती अस्मि। वयं संस्कृतछात्राः स्मः। गतसप्ताहे अहं चेन्नैनगरे आसम्। ह्यः वयं देवी मीनाक्षीमन्दिरे दर्शनं कृत्वा गृहम् आगच्छामः स्म आस्म।
समीचीनं भगिनि, बहु समीचीनमस्ति। धन्यवादः, धन्यवादः, समीचीनमस्ति भगिनि। अन्य कोऽपि वक्तुम् इच्छति वा? अस्तु, अस्तु अस्तु। अतः अनेकानि वाक्यानि वयं श्रुतवन्तः, भूतकालरूपाणि पठितवन्तः, पठितवान्, पठितवत्यः इति अपि अस्ति, सन्ति, आसीत्, आसन्, अस्मि, स्मः, आसम्, आस्म इति। अस्तु, तस्य एव किञ्चित् अपि अभ्यासः भवतु इति अहम् एतत् कथां प्रेषितवान्। सर्वे प्राप्तवन्तः वा? कथा अस्ति, मम दुःखम् अल्पं तेषां तु महत् इति। सर्वेषां पार्श्वे अस्ति वा एषा कथा?
आं महोदय,
अस्तु अस्तु। अस्तु, तत्र
अहं न जानामि कुत्र अस्ति।
नरेश् महोदय, भवान् ईमेल् प्राप्तवान् खलु अद्य अद्य न ह्यः? तत्र ईमेल् मध्ये एव अस्ति लिङ्क्, अस्ति प्रथमभागे एव अस्ति। इफ् टैम् पर्मिट्स् वि विल् रीड् द फालोइङ्ग् स्टोरी। अस्ति वा?
अस्ति
अस्तु अस्तु अस्तु, धन्यवादः। अस्तु, तत्र कः पठति पश्यामः। एतत् कुर्मः, इदानीं पर्यन्तं कः न उक्तवान्। गीता भगिनी पठति वा तत्र?
आं महोदय,
क्षम्यताम्, ऐ केम् लेट् नो, चिन्ता मास्तु, चिन्ता मास्तु।
हरि ओं महोदय, अहं भानुचैतन्य अहम् अस्मि।
नमस्कारं महोदय, नमस्कारः, नमस्कारं महोदय, अस्तु,
हरि ओम्।
सो दिस् इस् मम दुःखम् अल्पं तेषां तु महत् महत्। केरलराज्यस्य
अवगच्छति वा? अवगच्छति वा? अवगच्छति, अस्तु अस्तु।
केरलराज्यस्य कस्माश्चित् ग्रामे, कस्मिंश्चित् ग्रामे कृष्णः नाम प्रसिद्धः चित्रकारः वसति स्म। तस्य कुटुम्बं लघु। तस्य ग्रामे तस्य माता, पत्नी, पुत्रद्वयं च आसीत्। ते धनिकाः तु न आसन्। चित्रकलया कृष्णः यावत् धनं सम्पादयति तावत् तेषां जीवनार्थं पर्यासं भवति स्म।
तावत् तावत् पर्यन्तं, धन्यवादः भगिनि। महेल् महोदय अग्रे पठति वा? तत्र आसीत् पर्यन्तम् अग्रिमपरिच्छेदे एकस्मिन् अत्र तत्र आरभ्य ज्वलत् आसीत् इति तावत् पर्यन्तम्।
एकस्मिन् दिने रात्रौ सर्वे शयनं कृतवन्तः आसन्। तदा ते पार्श्वगृहतः आक्रन्दनं श्रुतवन्तः। कृष्णः झटिति उत्थाय बहिः आगत्य दृष्टवान्। पार्श्वं गृहम् अग्निना ज्वलत् आसीत्।
धन्यवादः महोदय, धन्यवादः। हर्षिता भगिनी अग्रे पठति वा? गृहस्य इति
एकनिमिषं महोदय।
गृहस्य अन्तः इति द्वितीयपरिच्छेदे
तस्य
एकस्मिन् दिने इति पेराग्राफ् अस्ति खलु, द्वितीय पेराग्राफ् परिच्छेदः. तत्र मध्ये गृहस्य अन्तः इति
पुटः अपि उपरि गृहस्य अन्तः शिशुद्वयम् अस्ति इति सः ज्ञातवान्. अग्रेः ज्वला सर्वत्र
अग्निः
अग्नेः ज्वला सर्वत्र ज्वाला सर्वत्र प्रसृता आसीत्. गृहस्य प्रवेशः कष्टकरः आसीत्, तथापि कृष्णः झाटिति अग्नेः मध्ये एव गृहं प्रविश्य शिशुद्वयमपि बहिः आनीतवान्. अग्नौ एव गतवान् इति कारणेन तस्य शरीरं पूर्णं दग्धम् आसीत्. चिकित्सालयं प्रति नयनात् पूर्वमेव सः दिवङ्गतः.
तावत् पर्यन्तं धन्यवादः भगिनि. धन्यवादः भगिनि. अस्तु, अन्य कोऽपि नरेश महोदय पठति वा अग्रे किञ्चित्?
आम्,
इष्टवान् पर्यन्तं तस्य इति आरभ्य इष्टवान् पर्यन्तं.
तस्य परोपकारगुणं सर्वे जनाः श्लाघितवन्तः. केरलस्य प्रसिद्धपत्रिकायाः मातृभूम्याः व्यवस्थापकः एतं विषयं ज्ञात्वा तस्य कुटुम्बस्य सहायं कर्तुम् इष्टवान्.
धन्यवादः महोदय. अस्तु, अग्रे रघुपति महोदय.
मम पार्श्वे इदानीमपि
चिन्ता मास्तु. नरेश महोदय भवानेव तत् पूर्णं करोतु.
पत्रिकायां प्रकटनद्वारा धनसहायं कर्तुं जनान् प्रार्थितवान्. केषुचित् दिनेषु एव 24,000 रूप्यकाणि सङ्गृहीतानि.
धन्यवादः महोदय. अस्तु, अग्रे साईकृष्णमहोदय पठितुम् इच्छति वा तत्र?
नमो नमः.
नमस्कारः महोदय. श्रूयते महोदय.
Sorry, I started learning Devanagari script only a year ago. I'll try.
That's fine. Yeah, that's fine. I just wanted to give you... you should just try. Try as much as you can read there.
Patrikayah vyavasthapakah tat janam svikrithya mitraihi sah krishnasya griham katavan. कृष्णस्य पत्री तान्
उपरि अस्ति तत्र स्वागतीकृतवती.
ओ सोरि, स्वागतीकृतवती. पश्चात् अन्तः गत्वा श्वश्रुः आगत्य तेषां कुशलवार्तां विचारितवती.
धन्यवादः महोदय. धन्यवादः. अस्तु, भानुचैतन्य महोदय अग्रे पठति वा तत्र?
आम् महोदय, कुत्र
इति? सः व्यवस्थापकः इति, थर्ड् कालम् उपरि,
थर्ड् कालम्
उपरि सः व्यवस्थापकः.
तथापि भवताम् तथापि भवताम् तस्य अधः
तथा न तस्य उपरि तस्य उपरि सः तत्र
तस्य उपरि आम् सः मया न दृष्टम् अहम् अधः एव सः व्यवस्थापकः कृष्णस्य प्रशंसां कुर्वन् अम्ब भवत्या पुत्रः परोपकारार्थं प्राणान् एव अर्पितवान् अस्ति. वयं तु भवत्याः पुत्रशोकं दूरीकर्तुं न शक्नुमः. तथापि भवताम् अग्रिमजीवने साहाय्यं भवतु इति किञ्चित् धनं सङ्गृह्य आनीतवन्तः स्म. कृपया एतद् धनं स्वीकरोतु इति वदन् धनस्यूतं तस्याः पुरतः स्थापितवान्.
धन्यवादः महोदय, धन्यवादः. अन्य कोऽपि पठितुम् इच्छति वा? सरला भगिनी अथवा वंशीसुधा भगिनी?
अस्तु, अहं पठामि.
तदा
अस्तु, सरला भगिनी पठतु, तदनन्तरं वेणुगोपाल महोदय पठति. अस्तु,
तदा सा तद्धनम् अस्वीकुर्वती उक्तवती, भो पुत्रस्य मरणं यावत् पीडयति ततोपि अधिकं प्रतिवेशिना कष्टं मां पीडयति. अस्माकं तु वासार्थं गृहम् अस्ति, तेषां तदपि नास्ति. तेषाम् एकं गृहं निर्माय यच्छन्तु इति. मातुः वचनं श्रुत्वा पत्रिकायाः व्यवस्थापकः स्तब्धम् अभवत्.
वेणुगोपाल महोदय, प्रथमपरिच्छेदः केरलराज्यस्य इति, तद् पुनरेकवारं वदतु, पठतु, तदनन्तरं पङ्क्तिशः वयं परिशीलयामः.
अस्तु. केरलराज्यस्य कस्मिंश्चित् ग्रामे कृष्णः नाम प्रसिद्धः चित्रकारः वसति स्म. तस्य कुटुम्बं लघु. तस्य ग्रामे तस्य माता, पत्नी, पुत्रद्वयं च आसीत्. ते धनिकाः तु न आसन्. चित्रकलया कृष्णः यावत् धनं सम्पादयति तावत् तेषां जीवनार्थं पर्याप्तं भवति स्म.
हा, धन्यवादः महोदय. अस्तु, अत्र किमर्थं वयम् एतत् पठामः इति कोऽपि वदति वा? भूतकालरूपाणि
दातु भूतकाल त्री वेस् यु केन् एक्स्प्रेस् इट्.
भूतकालरूपाणि सन्ति अत्र, श्लाघितवन्तः, श्रुतवन्तः, अभवत्, आसीत्, आसन्,
स्म
अपि अस्ति. अतः एतदहं चिन्तितवान् बहु समीचीनम् अस्ति इति, अतः एव एतत् अहं प्रेषितवान्. अस्तु, तत्र कथा किम् अस्ति इति पश्यामः. यस्य म्यूट् नास्ति कृपया म्यूट् कुर्वन्तु. अस्तु, धन्यवादः. केरलराज्यस्य प्रथमं, मम दुःखम् अल्पं, तेषां तु महत् इति सर्वे अवगच्छन्ति इति मन्ये. मम दुःखम् अल्पं, किमपि नास्ति मम दुःखं, किन्तु तेषां तु महद्दुःखम् अस्ति इति. किमर्थम् एतत् उक्तम्, अपि कः एतत् उक्तवान् अथवा उक्तवती इति पश्यामः. केरलराज्यस्य कस्मिंश्चित् ग्रामे ग्रामे इति सप्तमी विभक्ति, कस्मिन् ग्रामे इति भवति, तत्र कस्मिंश्चित् सर्टन् विलेज् ग्रामे कृष्णः नाम प्रसिद्धः चित्रकारः वसति स्म. स्म इति इत्युक्ते भूतकाले, वसति स्म, इदानीं नास्ति किन्तु वसति स्म. तस्य कुटुम्बं लघु, कृष्णस्य कुटुम्बं लघु. तस्य इत्युक्ते कृष्णस्य ग्रामे तस्य माता पत्नी पुत्रद्वयं च आसीत्. तत्र आसीत् इति लिखितमस्ति, अन्यत् पदं तत्र वक्तुं शक्नुमः वा? तस्य ग्रामे तस्य माता पत्नी पुत्रद्वयं च आसीत्.
आसन्
आसन् आसन् आसन् आसन् इति एव अहं चिन्तितवान्, किन्तु तत्र आसीत् इति अस्ति, तत् प्रायशः तदपि सम्यक् एव अस्ति इति मन्ये. अस्तु, च आसन्. हा, ते धनिकाः तु न आसन्, इदानीम् आसन् न आगच्छति, पूर्वम् आसीत् इति आसीत्. हा, ते धनिकाः तु न आसन्. चित्रकलया, तत् तृतीया विभक्ति इति वदामः, माध्यमम् इति. सः चित्रं कृत्वा तस्य तेन सः जीवनं करोति स्म, अतः चित्रकलया कृष्णः यावत् धनं सम्पादयति तावत् तेषां जीवनार्थं पर्याप्तं भवति स्म. पर्याप्तं भवति स्म, अधिकमपि नास्ति अल्पमपि नास्ति, किन्तु सम्यक् आसीत् तावत् तेषां जीवनार्थं पर्याप्तं भवति स्म. एकस्मिन् दिने
महोदय महोदय ते धनिकाः तु न आसन्, तु न अर्थः किं महोदय?
तु न इत्युक्ते
ते धनिकाः, ते
धनिकाः इति तत्र तु इति एतत् सम्यक् अस्ति तु इति एम्फसिस् अथवा इन्डीड् इति तदपि
धन्यवादः.
अन्यप्रश्नः अस्ति वा अत्र प्रथमपरिच्छेदे तेषां जीव अस्तु. तत्र कस्मिंश्चित् चित्रकलया इति तृतीया विभक्ति, तदपि अग्रे पश्यामः. अपि यावत् तावत् तदपि अग्रे पश्यामः. अग्रे हा, एकस्मिन् दिने रात्रौ, हा अन्यत् प्रायश अत्र किं चित्रकारः वसति स्म, हा अत्र अन्य अंशः तत्र द्रष्टव्यं यत् अस्ति चेत्, चित्रकारः कृष्णः चित्रकारः अस्ति, चित्रकारस्य तत् विशेष्यमस्ति, प्रसिद्धः इति विशेषणमस्ति. हा, प्रसिद्धः चित्रकारः कृष्णः इति. अपि अन्यत् किमस्ति तत् तावत् जीवनार्थं पर्याप्तम्? अस्तु. हा, एकस्मिन् दिने रात्रौ सर्वे शयनं कृतवन्तः आसन्. हा, कृतवन्तः इदानीं भूतकालरूपं अत्र अपि आगच्छति, कृतवन्तः आसन्. एकस्मिन् दिने रात्रौ सर्वे शयनं कृतवन्तः आसन्. तदा ते पार्श्वगृहतः आक्रन्दनं श्रुतवन्तः. आक्रन्दनं पार्श्वगृहतः इत्युक्ते फ्रम् दि नेबरिङ्ग् हौस्, नेक्स्ट् हौस्, अड्जाय्निङ्ग् हौस् इति पार्श्वगृहतः, पार्श्वे इति नियर् बै, हा पार्श्वगृहतः आक्रन्दनम्, आक्रन्दनम् इत्युक्ते लामेण्टेशन् अथवा क्रैस्, आक्रन्दनं श्रुतवन्तः. कृष्णः झटिति उत्थाय, सः उत्थितवान्, तदनन्तरं किं कृतवान्, बहिः आगतवान्, दृष्टवान्. पार्श्वगृहम् अग्निना ज्वलत् आसीत्. गृहम् इति अस्ति ज्वलत्, अग्निना ज्वलत् पार्श्वगृहं, तत्र अग्निना ज्वलत् अपि विशेषणं, पार्श्वगृहं विशेष्यम्. पार्श्वगृहम् अग्निना, तत्र अग्नि अपि माध्यमं, चित्रकलया इति यद् दृष्टवन्तः माध्यमं, चित्रकलया बै ड्रायिङ्ग् आर् बै इस् आर्ट्, हा तत्र अग्निना बै फायर् ज्वलं ज्वलत् आसीत्, इट् वास् बर्निङ्ग्. हा, गृहस्य अन्तः शिशुद्वयम् अस्ति इति सः सः अत्र कृष्णः सः ज्ञातवान् सः जानाति कृष्णः जानाति यत् पार्श्वगृहे शिशुद्वयम् अस्ति इति सः जानाति अतः सः किं कृतवान् अग्नेः ज्वाला सर्वत्र प्रसृता आसीत् अग्नेः इति षष्ठीविभक्तिः अग्निः अग्नेः हरिः हरेः इति अग्नेः ज्वाला सर्वत्र प्रसृता आसीत् तत्र प्रसृता इति विशेषणं भवति ज्वालाशब्दस्य प्रसृता ज्वाला प्रसृता इत्युक्ते स्प्रेड् इति प्रसृता ज्वाला अग्नेः ज्वाला सर्वत्र प्रसृता आसीत् अग्नि सर्वत्र आसीत् तत्र गृहस्य प्रवेशः कष्टकरः आसीत् तथापि
इत्युक्ते
प्रसृता तत्र तत् विशेषणमस्ति ज्वाला इति फायर् इति अग्नेः ज्वाला फ्लेम्स् फ्लेम्स् प्रसृता ज्वाला इति स्त्रीलिङ्गमस्ति प्रसृता अपि स्त्रीलिङ्गमस्ति गृहस्य प्रवेशः कष्टकरः आसीत् तत्रापि कष्टकरः विशेषणमस्ति प्रवेशः विशेष्यम् अस्ति कष्टकरः प्रवेशः गृहस्य प्रवेशः कष्टकरः आसीत् तथापि कष्टकरः आसीत् किन्तु कृष्णः झटिति अग्नेः मध्ये एव तत्र अग्नेः इति अस्ति तत् षष्टिविभक्तिः अग्नेः हरेः मध्ये तत् सप्तमी विभक्ति इति वदामः मध्ये एव गृहं प्रविश्य शिशुद्वयमपि बहिः आनीतवान् ज्ञातवान् आनीतवान् इति आसीत् अग्नौ एव गतवान् सः कुत्र गतवान् अग्नौ एव गतवान् तत्रापि अग्नौ इति सप्तमी विभक्ति अग्नौ एव गतवान् इति कारणेन अग्नौ एव गतवान् इति कारणेन सः अग्नौ एव गतवान् अतः किम् अभवत् तेन कारणेन तस्य शरीरं पूर्णं दग्धम् आसीत् दग्धम् इत्युक्ते ड्रै इति अपि भवति अत्र बर्न्ड् इति अर्थः भवति दग्धम् आसीत् चिकित्सालयं प्रति नयनात् पूर्वमेव सः दिवङ्गतः इति सर्वे अवगच्छन्ति सः दिवङ्गतः इति विशेषणं भवति सः पदस्य सः इत्युक्ते कृष्णः पूर्वमेव तत्र नयनात् कः वदति चिकित्सालयं प्रति नयनात् पूर्वम् एव इति अतः कः नयनात् पूर्वम् एव चिकित्सालयं प्रति नयनात् पूर्वमेव इत्युक्ते
तत्र मृत्यु अभवत् तस्य
बिफोर् टेकिङ्ग् नयनात् पूर्वमेव ते चिन्तितवन्तः सर्वे चिन्तितवन्तः चिकित्सालयं नयामः इति किन्तु तस्य पूर्वमेव सः दिवङ्गतः अस्तु एतत् अभवत् अग्रे किम् भवति तस्य परोपकारणगुणं सर्वे जनाः श्लाघितवन्तः तदपि भूतकालरूपं श्लाघितवन्तः सर्वे जनाः श्लाघितवन्तः इत्युक्ते प्रेस्ड् अथवा यूलजैस्ड् श्लाघितवन्तः केरलस्य प्रसिद्धपत्रिकायाः मातृभूमि इति प्रसिद्धा पत्रिका अस्ति केरलाप्रदेशे अतः केरलस्य प्रसिद्धपत्रिकायाः मातृभूम्याः व्यवस्थापकः तत्र षष्ठीविभक्तिः अस्ति केरलस्य प्रसिद्धपत्रिकायाः मातृभूम्याः सर्वे षष्ठीविभक्ति व्यवस्थापकः एतं विषयं ज्ञात्वा कृष्णस्य मरणस्य विषयं ज्ञात्वा तस्य कुटुम्बस्य, तस्य इत्युक्ते कृष्णस्य कुटुम्बस्य साहाय्यं कर्तुम् इष्टवान्। सः इच्छति एतत् किञ्चित् साहाय्यं कुर्मः, कृष्णस्य कुटुम्बस्य साहाय्यं कुर्मः इति सः इच्छति, अत्र इष्टवान्, कर्तुम् इष्टवान्। पत्रिकायां प्रकटनद्वारा, पत्रिकायां प्रकटनं कृतवन्तः सर्वे जनाः, साहाय्यं कृष्णस्य कुटुम्बस्य साहाय्यं कुर्वन्तु कृपया इति प्रकटनं कृतवन्तः। अतः पत्रिकायां प्रकटनद्वारा धनसाहाय्यं कर्तुं जनान् प्रार्थितवान्। कः प्रार्थितवान्? व्यवस्थापकः, मातृभूम्याः व्यवस्थापकः पत्रिकामध्ये प्रकटनं कृत्वा धनसाहाय्यं कर्तुं जनान् प्रार्थितवान् सः। केषुचित् दिनेषु, केषु दिनेषु, अत्र केषुचित् कस्मिंश्चित् तादृश एव, इन् अ फ्यू डेस्, केषुचित् दिनेषु एव, इन् अ फ्यू डेस् ओन्लि, चतुर्विंशतिसहस्रं रूप्यकाणि सङ्गृहीतानि, तत्र सङ्गृहीतानि रूप्यकाणि, सङ्गृहीतानि रूप्यकाणि विशेष्यं भवति, सङ्गृहीतानि इति विशेषणं भवति, कलेक्टेड्। पत्रिकायाः, अत्र एतावत् कोऽपि प्रश्नः अस्ति वा? अत्र
व्यवस्थापकः इत्युक्ते,
व्यवस्थापकः इति मम चिन्तनमस्ति पब्लिशर् अथवा एडिटर् इति, व्यवस्थापकः इति अस्तु, मेनेजिङ्ग् एडिटर् अथवा फौण्डर् अपि भवितुम् अर्हति, किन्तु किन्तु अहं न जानामि कः
एडिटर्, सम्पादकः,
एडिटर् सम्पादकः, अस्तु, कोऽपि अस्तु, व्यवस्थापकः,
सर्वे अपि सम्यक् अस्ति
महोदय, पत्रिकायाः मुख्य,
अस्तु, अन्यप्रश्नः अस्ति वा अत्र? अस्तु,
सङ्गृहीतानि, वट् इस् द वर्ब् इन् दट् वाक्य,
कुत्र कुत्र भगिनि?
केषुचित् दिनेषेव चतुर्विंशतिसहस्रं रूप्यकाणि सङ्गृहीतानि,
सङ्गृहीतानि इत्युक्ते कलेक्टेड् भगिनि, 24,000 rupees, 24,000 rupees were collected in a few days only.
Then is there another verb there or is that the verb?
Sangrihitani. Sangrihitani.
Sam upasarga grihita, grihi. Okay. Ta pratyaya. Yeah. Ta pratyaya. Atra napumsakalinga bahuvachanam. Bahuvachanam.
पठितं, पठितानि पुस्तकानि, तादृशम् अस्ति अत्र भगिनि, तत् किन्तु तत्र विशेषणं भवति रूप्यकाणि पदस्य। अग्रे गच्छामः वा? अस्तु, पत्रिकायाः व्यवस्थापकः तत् धनं स्वीकृत्य, स्वीकृत्य इत्युक्ते टेक्, टेकिङ्ग्, मित्रैः सह कृष्णस्य गृहं गतवान्, गतवान् भूतकालरूपं, कृष्णस्य पत्नी तान् स्वागतीकृतवती, तदपि स्वागतीकृतवती भूतकालरूपं, स्वागतं कृतवती, स्वागतीकृतवती, पश्चात् अन्तः गत्वा श्वश्रूम् आहूतवती, श्वश्रूम् इत्युक्ते पत्युः माता, श्वश्रूः आगत्य तेषां कुशलवार्तां विचारितवती, तत्रापि विचारितवती भूतकालरूपं, सः व्यवस्थापकः कृष्णस्य प्रशंसां कुर्वन्, कुर्वन् इदानीं वयं न दृष्टवन्तः, किन्तु अग्रे पश्यामः. तत् कुर्वन् सः करोति, तस् करोति अपि वदति, प्रशंसा कुर्वन् वदति, अम्ब भवत्या पुत्रः, भवत्याः पुत्रः परोपकारार्थं प्राणान् एव अर्पितवान् अर्पितवान् अस्ति. वयं तु भवत्याः पुत्रशोकं दूरीकर्तुं न शक्नुमः. भवत्याः पुत्रः परोपकारार्थं प्राणान् एव अर्पितवान् अस्ति. वयं तु भवत्याः पुत्रशोकं दूरीकर्तुं न शक्नुमः. तथापि भवताम् अग्रिमजीवने साहाय्यं भवतु इति किञ्चित् धनं सङ्गृह्य आनीतवन्तः स्मः. आनीतवन्तः अपि स्मः, सङ्गृह्य सङ्ग्रहणं कृत्वा आनीतवन्तः स्मः. किञ्चित् धनं वयं सङ्गृहीतवन्तः, तद् आनीतवन्तः अपि अत्र. किमर्थं भवताम् अग्रिमजीवने साहाय्यं भवतु इति वयम् एतत् सर्वं कृतवन्तः, धनं गृहीतवन्तः अपि आनीतवन्तः. भवताम् इति कोऽपि वदति वा? भवताम् इति किमस्ति इति? अग्रिमजीवने समीचीनं भगिनि. हा, षष्टिविभक्ति भवत् शब्दस्य षष्टिविभक्ति बहुवचनरूपम् अस्ति. भवतां, भवताम् अग्रिमजीवने, केवलं श्वश्रु नास्ति खलु, अन्याः अपि सन्ति तत्र. अत्र भवतां सर्वे, भवताम् अग्रिमजीवने साहाय्यं भवतु इति किञ्चित् धनं सङ्गृह्य आनीतवन्तः स्मः वयं. व्यवस्थापकः अपि तस्य मित्राणि. अस्तु, हा, कृपया एतत् धनं स्वीकरोतु इति वदन् इति उक्त्वा धनस्यूतं तस्याः पुरतः स्थापितवान् भूतकालरूपं. धनस्यूतं सः स्थापितवान्, एतत् किञ्चित् धनमस्ति, कृपया एतत् धनं स्वीकरोतु इति. सः तत्र श्वश्रूः अस्ति, तस्याः पुरतः व्यवस्थापकः धनस्यूतं स्थापितवान्. तदा सा तत् धनम् अस्वीकुर्वती. तत्र अस्वीकृतवती नास्ति, अस्वीकुर्वती इति अस्ति, उक्तवती, उक्तवती अस्ति, अस्वीकुर्वती अस्ति. भोः पुत्रस्य मरणं यावत् पीडयति ततोप्यधिकं प्रतिवेशिनां कष्टं मां पीडयति. अस्माकं तु वासार्थं गृहमस्ति, तेषां तदपि नास्ति. अतः कृपया भवन्तः एतेन धनेन तेषां निमित्तम् एकं गृहं निर्माय यच्छन्तु इति. तदा श्वश्रू किं वदति? सा तत् धनम् अस्वीकुर्वति. तत्र कुर्वन् इति अस्ति, अहं गच्छन् खायामि इति. तत्र अस्वीकुर्वति इति, तत्र कार्यद्वयं भवति. तत् न स्वीकरोति अपि सः वदति, सा वदति, अतः अस्वीकुर्वती उक्तवती. तत्र रूपं समम् इति मन्ये, किन्तु न तादृश दृश्यते, किन्तु नास्ति. अस्वीकुर्वती रूपम् अन्यत् रूपम् अस्ति, उक्तवती भूतकालरूपम् अस्ति. उक्तवती भोः पुत्रस्य मरणं यावत् पीडयति, यावत् तावत् पूर्वमपि दृष्टवन्तः, यावत् पीडयति मरणं, पुत्रस्य मरणं मां पीडयति, तत्तु सत्यं, किन्तु यावत् पीडयति तस्यापि अधिकं, ततोप्यधिकं प्रतिवेशिनां, प्रतिवेशित् इति प्रतिवेशिन् इति भवति, प्रतिवेशिनां इत्युक्ते नेबर्स्, प्रतिवेशिणां कष्टं, षष्ठीविभक्ति बहुवचनं, प्रतिवेशिणां प्रतिवेशिनां कष्टं मां पीडयति, तेषां दुःखं मां पीडयति. मम दुःखं तु अस्ति किन्तु तेषां दुःखं मां पीडयति, अधिकं पीडयति. अस्माकं तु वासार्थं गृहमस्ति, वयं गृहे वसामः, तत्र कष्टः नास्ति. किन्तु तेषां, वयं कथायां दृष्टवन्तः खलु, तत् पार्श्वगृहम् अग्निना ज्वलत् आसीत्. तत्र अस्माकं तु वासार्थं गृहमस्ति, तेषां तदपि नास्ति, गृहमपि नास्ति. अतः कृपया भवन्तः एतेन धनेन तेषां निमित्तम् इत्युक्ते फार् देर् सेक् अथवा रीज़न्, कारणं, फार् देम् एकं गृहं निर्माय इति तत् कृत्वा उत्थाय इति तादृशरूपमस्ति, ल्यबन्तम् इति वदामः, अग्रे पश्यामः. निर्माय यच्छन्तु, तां यच्छन्तु इति, निर्माय गृहं निर्माय यच्छन्तु इति श्वश्रू वदति. मातुः वचनं श्रुत्वा पत्रिकायाः व्यवस्थापकः स्तब्धः अभवत्. स्तब्धः इत्युक्ते सः किमपि वक्तुं न शक्नुष्टण्ड् समीचीनं भगिनि, स्टण्ड्, हि वास् स्टण्ड्. अस्तु, तत्र प्रश्नः अस्ति वा? सर्वे कथाम् अवगतवन्तः वा?
अस्ति कुर्वति इत्युक्ते
कुत्र भगिनि, कुत्र भगिनि?
कदा सा अस्वीकृतवती
तदा सा तत् धनम् अस्वीकुर्वति. स्वीकरोति इत्युक्ते सा अङ्गीकरोति, आम् एतद् धनं स्वीकरोमि इति. किन्तु सा तद् न कृतवती, अस्वीकृतवती. किन्तु अस्वीकरोति, किन्तु तस्मिन् समये एव सा अपि वदति, एतद् मास्तु, एतद् मास्तु इति सा वदति, सा करोति अपि वदति, एतत् सर्वं भोः इति तत् सर्वं वदति. अतः कार्यद्वयं तत्र भवति. सः गच्छन् वदति अथवा सा गच्छति वदति इति भवति, कार्यद्वयं भवति. सा गच्छति, सा गच्छन्ती वदति, तादृशम् अस्ति. तत्र अस्वीकुर्वती उक्तवती इति भवति. तत्र सा वदति न, एतत् धनम् अहं न स्वीकरोमि इति.
महोदय, तत्र प्रयोगं सम्यक् वा अथवा अस्वीकुर्य उक्तवती?
तत्र अस्वीकुर्य इत्युक्ते तद् कृत्वा अन्यत् कार्यं करोति. अहं गृहं गत्वा पठामि तद् न, अहं गृहं गच्छन् अस्मि, तस्मिन्नेव समये अहं पठामि. अहं गृहं गच्छन् पठामि इति तादृशरूपमस्ति. कार्यद्वयं तत्र भवति, स्वीकुर्वती उक्तवती. अस्तु,
महोदय, एकः प्रश्नः अस्ति. उपरि द्वितीयपरिच्छेदे वाक्यम् अम्बा भवत्या पुत्रः परोपकारार्थं प्राणान् एव अर्पितवान् अस्ति या आसीत् महोदय?
अस्ति, अर्पितवान् अस्ति.
अर्पितवान् भूतकालमेव अस्ति, आसीत्
किन्तु तत्र एतदपि सम्यक् अस्ति, आसीत् अपि सम्यक् अस्ति.
अस्ति इति
आसन् इत्युक्ते
वदतु भगिनि, वदतु
अस्ति इत्युक्ते हि हेस् गिवन् इस् लैफ् आसीत् इत्युक्ते हि हेड् गिवन् इस् लैफ् करेक्ट् महोदय
प्राणन् अर्पितवान् सः प्राणन् अर्पितवान् अस्ति इत्युक्ते दट् इस् ट्रू इट्स् ट्रू इवन् नौ इति
धन्यवादः एकः प्रश्नः महोदय तत्र रूप्यकाणि सङ्गृहीतानि इति अस्ति तत्र भवतः वदति सङ्गृहीतानि इति विशेषणम् इति अस्ति इति भवतः वदति
अहम् उक्तवान् सत्यम्
आङ्ग्लभाषे सङ्गृहीतानि
कलेक्टेड्
इति क्रियापदम् अस्ति अस्ति खलु
तत्र कलेक्ट् इति कलेक्ट् इति क्रियापदमस्ति आङ्ग्लभाषायां किन्तु मनी दट् वास् कलेक्टेड् इति तत्र अथवा कलेक्टेड् मनी तादृशरूपम् अस्ति अत्र कीदृशरूप्यकाणि सङ्गृहीतानि रूप्यकाणि इति रघुपतिमहोदय वक्तुम् इच्छति वा किमपि अत्र
तत्र अहं मन्ये विशेषणं नास्ति इति रूप्यकाणि सङ्गृहीतानि रूप्यकाणि कर्मपदः वा
हलो तत्र कर्मपदं
नास्ति एव सङ्गृहीतानि कानि सङ्गृहीतानि रूप्यकाणि सङ्गृहीतानि विशेषणं वा
कर्मपदे अपि विशेषणं भवितुम् अर्हति खलु महोदय केवलं कर्तृपदे एव विशेषणम् इति नास्ति खलु उत्तमः रामः अस्ति अहम् उत्तमं रामं पश्यामि उत्तमेन रामेण एतत् कार्यं कृतम् उत्तमेन रामेण एतत् उत्तमं कार्यं कृतम् समीचीनं वा हा रूप्यकाणि सङ्गृहीतानि
अस्तु महोदय धन्यवादः
सङ्गृहीतानि इति तत्र अन्यत् उदाहरणम् अहं वदामि एतदपि सुलभम् उदाहरणम् अस्ति अहं पुस्तकं पठामि एतत् पुस्तकं मया पठितम् एतत् पुस्तकं कीदृशं पुस्तकम् एतत् मया पठितं पुस्तकं तत्र पठितं पुस्तकं पदस्य विशेषणम् अस्ति
अस्तु
महोदय प्रतिवेशी इति स्त्रीलिङ्गः वा
कुत्र महोदय प्रतिवेशी इति प्रथमाविभक्ति भवति किन्तु स्त्रीलिङ्गपदं नास्ति तत् पुल्लिङ्गपदमस्ति प्रतिवेशिन् इति प्रातिपदिकमस्ति
यथा गोरेन् गोरे सन्यासिन् सन्यासी
तत् नकारान्त पुल्लिङ्गशब्दः अनेकाः सन्ति गीतासोपि पुल्लिङ्गशब्दः अस्ति पुल्लिङ्गशब्दः अस्ति गीतासोपाने द्वितीयभागे वयम् एतद् हलन्तशब्दः एतत् सर्वं पश्यामः तत्र प्रतिवेशिन् इति नकारान्तपुल्लिङ्गशब्दः अस्ति साधारणतया वयं चिन्तयामः पुल्लिङ्गशब्दः अकारान्तः अस्ति किन्तु आत्मन् तद् तादृश क्षम्यतां किन्तु अन्य एतत् प्रतिवेशिन् भवान् शब्दवत् अतः क्षम्यतां भवत् तद् भवत् अस्ति किन्तु अस्तु
प्रतिवेशिनी
सत्यं प्रतिवेशिनी इति स्त्रीलिङ्गे भवति सत्यं सत्यं प्रतिवेशिनी इति स्त्रीलिङ्गे भवति सत्यं अस्तु सर्वे अवगतवन्तः इति मन्ये कथाम् अस्तु अस्तु अत्र किञ्चित् अग्रे गच्छामहे अत्र अभ्यासपुस्तकं स्वीकुर्मः तत्र वयं प्रायशः सर्वे 11.3 सर्वं कृतवन्तः इति मन्ये अतः भविष्यत्कालरूपाणि कर्तुं शक्नुमः इति मन्ये इदानीं तत् पेज् 41 मध्ये अस्ति कः वक्तुं इच्छति अत्र प्रिया भगिनी पठति वा तत्र
आं महोदय पठामि 1.3 वा
न न तत् सर्वं कृतवन्तः 12.1 भविष्यत्कालरूपम्
भविष्यत्कालरूपाणि सुब्रह्मण्यः श्वः विद्यालयं न गमिष्यति सः चिकित्सालयं गमिष्यति तत्र वैद्यं द्रक्षयति तेन सह सम्भाषणं तत्र वैद्यं द्रक्षयति तेन सह सम्भाषणं करिष्यति स्वस्य अनारोग्यं निवेदयिष्यति सः श्वः न क्रीडिष्यति गृहे उपविश्य पाठं पठिष्यति
धन्यवादः भगिनी
सुब्रह्मण्यः श्वः किं किं करिष्यति इति तत्र लिखितम् अस्ति भवान् श्वः किं किं करिष्यति इति अत्र लिखतु
धन्यवादः तावत्पर्यन्तं समीचीनमस्ति भगिनि धन्यवादः अत्र धन्यवादः भगिनि भविष्यत्कालरूपाणि भूतकालरूपाणि दृष्टवन्तः अत्र भविष्यत्कालरूपं तत्र गमिष्यति करिष्यति निवेदयिष्यति क्रीडिष्यति इति तत्र शकारः अथवा सकारः क्षकारः तद् तत्तु भवति एव अग्रिमे पुटे रूपाणि सन्ति तत्र कः अन्य कोऽपि मेहुल् महोदय पठति वा अग्रे तत्र विशेषरूपाणि इति
12.2
अग्रिमपुटे 42
विशेषरूपाणि पिबति पास्यति ददाति दास्यति जानाति ज्ञास्यति शृणोति श्रोष्यति लिखति लेखिष्यति मिलति मेलिष्यति पृच्छति प्रक्ष्यति त्यजति त्यक्ष्यति शक्नोति शक्ष्यति उपविशति उपवेक्ष्यति उत्तिष्ठति उत्थास्यति गृह्णाति ग्रहीष्यति
धन्यवादः महोदय अत्र प्रथमम् अत्र रूपं वयं दृष्टवन्तः तत्र एतत् पुनरेकवारं पश्यामः 12.1 पेज् 41 सुब्रह्मण्यः श्वः विद्यालयं न गमिष्यति विल् नाट् गो टुमोरो कुत्र विद्यालयं कदा श्वः सुब्रह्मण्यः श्वः विद्यालयं न गमिष्यति सः अतः सुब्रह्मण्यमहोदय किं करोति श्वः सः चिकित्सालयं गमिष्यति विद्यालयं न गमिष्यति चिकित्सालयं गमिष्यति तत्र वैद्यं द्रक्ष्यति सः वैद्यं पश्यति किन्तु भविष्यत्काले अस्ति द्रक्ष्यति तेन सह सम्भाषणं करिष्यति तेन सह वैद्येन सह सः सम्भाषणं करिष्यति. सुब्रह्मण्यः महोदय वैद्येन सह सम्भाषणं करिष्यति श्वः. स्वस्य अनारोग्यं निवेदयिष्यति. मम अनारोग्यम् अस्ति इति तद् सर्वं सः वदति. स्वस्य अनारोग्यं निवेदयिष्यति. सः श्वः न क्रीडिष्यति. किन्तु सः किं करोति? गृहे उपविश्य पाठं पठिष्यति. सुब्रह्मण्यमहोदय अस्तु, तत्र सुब्रह्मण्यः श्वः किं किं करिष्यति इति तत् लिखितम् अस्ति. इदानीं वयं तादृशवाक्यानि लिखामः. अस्तु, तत्र गमिष्यति, द्रक्ष्यति, करिष्यति, निवेदयिष्यति, क्रीडिष्यति, पठिष्यति अपि यद् रूपम् अग्रिमपुटे अस्ति, लेखिष्यति, उत्थास्यति इति यद् रूपं तत्र दत्तमस्ति तदेव स्वीकृत्य वाक्यं रचयामः. सुलभं सरलवाक्यमेव वदामः, क्लिष्टवाक्यं मास्तु. अहम् अथवा सः इति, अथवा सः एव स्वीकृत्य, सः अथवा सा अथवा महिला, बालिका, बालः, रामः, कृष्णः, सीता, पार्वती इति तादृशम् उपयुज्य सरलं वाक्यं. श्वः परश्वः इति, रामः परश्वः जलं पास्यति, तादृशं सरलवाक्यं रचयामः. अस्तु, कः वदति?
एकः प्रश्नः अस्ति, निवेदयिष्यति इत्युक्ते कः अर्थः?
अनारोग्यं निवेदयिष्यति, डिस्क्रैब् अथवा डिस्क्रैब् इति मन्ये तत्र.
ओ, वदिष्यति,
तस्य विषये वदिष्यति. वदिष्यति तस्य विषये किं किमपि सः निवेदनं करोति, करिष्यति, निवेदनं करिष्यति. कः वाक्यं प्रथमं वाक्यं वदति?
अहम् अत्र अस्ति, अहं श्वः मैसूरु गमिष्यामि, तत्र उद्यानं गमिष्यामि च.
अस्तु, उद्याने
उद्याने पुष्पाणि फलानि च द्रक्ष्यामि.
द्रक्ष्यामि, हा, समीचीनं भगिनि. हा, अन्य कोऽपि वदति वा? गीता भगिनी वदति वा, अथवा बालचैतन्यमहोदय वदति वा?
तत्र बालकैः सह क्रीडिष्यामि.
समीचीनं महोदय. रघुपति महोदय,
अहं श्वः क्रीडाङ्गणे गमिष्यामि, तत्र क्रीडाङ्गणं गमिष्यामि, कन्दुकक्रीडनं क्रीडिष्यामि.
कन्दुकक्रीडां,
ओके, क्रीडनं न, कन्दुकक्रीडां क्रीडिष्यामि,
करिष्यामि. अस्तु, अन्य कोऽपि? अस्तु, वेणुगोपाल् महोदय वदतु.
अहं श्वः कार्यालयं गमिष्यामि, कार्यं कृत्वा मन्दिरं गमिष्यामि.
हा, समीचीनं महोदय, समीचीनं. वंशीसुधा भगिनि
महोदय, अहं वक्तुमिच्छामि महोदय.
वदतु वदतु भगिनि.
अहं कक्षाम् अनन्तरं भविष्यत्कालरूपाणि ज्ञास्यामि.
भविष्यत्कालरूपं
रूपाणि ज्ञास्यामि.
हा समीचीनं भगिनि, समीचीनमस्ति.
धन्यवादः महोदय.
अस्तु, अन्य कोऽपि वक्तुमिच्छति वा?
अहं आगमसप्ताहे इण्डिया गमिष्यामि.
भारतदेशं
गमिष्यामि.
भारतदेशं गमिष्यामि.
गमिष्यामि, तत्र बहूनि चलनचित्राणि द्रक्ष्यामि.
द्रक्ष्यामि. समीचीनम्.
आश्रमं
तत्र चलन एकनिमिषं भगिनि, क्षम्यतां. तत्र बहूनि
चित्राणि द्रक्ष्यामि.
इदानीं समीचीनं.
आश्रममपि गमिष्यामि.
आश्रममपि गमिष्यामि. समीचीनं भगिनि, धन्यवादः. अन्य कोऽपि वदति वा? सरलवाक्यं, एकं वाक्यमपि समीचीनमेव अस्ति. केवलम् अभ्यासार्थं
वयं महोदयस्य ध्वनिमुद्रां श्रोष्यामः. पुनः गृहपाठं लेखिष्यामः.
समीचीनं भगिनि, लेखिष्यामः. समीचीनं. अन्य
नरेश.
नरेश महोदय वदतु.
अहम् अग्रिम सप्ताहे कक्षायाम् आगमिष्यामि.
समीचीनं महोदय. कक्षाम् इति मन्ये, कक्ष्याम् आगमिष्यामि. कक्ष्याम् आगमिष्यामि. अन्य मेहुल् महोदय किञ्चित् उच्चैः वदतु.
अहं श्वः निश्चयेन संस्कृत अभ्यासं करिष्यामि.
समीचीनं महोदय. अग्रे वदति वा?
अहं श्वः कार्यालयं गमिष्यामि, अनन्तरं व्यायामं करिष्यामि.
समीचीनं महोदय. अस्तु, अन्य कोऽपि वक्तुमिच्छति वा?
अहं मम सखीः मेलिष्यामि.
तत्र
तृतीया
तत्र सः इति भवति सखीभिः प्रायशः, अथवा
बहुवचने द्वितीया विभक्ति न
द्वितीयविभक्ति नास्ति, मेलनं तत्र तृतीयविभक्ति अस्ति.
तृतीयविभक्ति
सख्या सह अथवा
सख्या सह.
इदानीं पूर्णं वाक्यं वदतु.
भारतदेशे अहं मम सखीभिः
सह
मेलिष्यामि.
समीचीनं भगिनि, समीचीनं. अन्य कोऽपि वक्तुमिच्छति वा?
भगिनी, तत्र नारिकफलस्य जलमपि पास्यति.
सत्यं. अस्तु, अन्य कोऽपि वदति वा? भारतदेशे प्रिया भगिनी वदतु, क्षमतां. वदतु.
अग्रिमवर्गे अपि वयं प्रश्नं प्रक्ष्यामः.
समीचीनं भगिनि, समीचीनं.
अहं कक्षाम् अनन्तरं चायं पास्यामि.
चायं पास्यामि. अस्तु, समीचीनं भगिनि. तत्र इदानीमेव दिनम् अस्ति खलु अत्र अमेरिकादेशे मध्ये तु रात्रि अस्ति किन्तु भारतदेशे हा अस्तु भगिनि हा अन्य उदाहरणम् अन्यवाक्यं कोऽपि वक्तुम् इच्छति वा
भारतदेशं
हा
भारतदेशं पाकिस्तान् देश पाकिस्तान् देशे श्वः विनाश्यति
बहु सम्यक् अस्ति
अस्तु 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 हा अन्यत् अन्यत् वाक्यं कोऽपि वक्तुम् इच्छति वा
अहं श्वः पञ्चवादने उत्तिष्ठामि अध्यापनं करिष्यामि उत्तिष्ठामि
उत्थास्यामि इति प्रायशः
उत्थास्यामि संस्कृत अध्ययनम् अपि करिष्यामि
हा समीचीनं महोदय समीचीनं कार्यक्रमः अस्ति
अहं क्रोधं त्यक्ष्यामि इति वचनं ददामि अद्य
अस्तु भगिनि
महोदय एकः प्रश्नः अस्ति मेलनं for that verb I meet my friends or I meet Melisium. With my friends
ha tatra tritiya vibhakti eva asti ha
eva
mitrena saha milami mitrena saha milami iti ha mitrena saha milami iti ha tatra mele milami iti tat akarmaka kriya padam iti vadamah tatra karma padam nasti atah aham mitram milami iti tad na bhavati tatra
मित्रेण सह
हा मित्रेण सह एव इति भवति हा अकर्मकक्रियापदमस्ति
अकर्मक
मिलति हा अकर्मकक्रियापदमस्ति मिलति
धन्यवादः
अन्य कोऽपि वदति वा अन्य कोऽपि पास्यति दास्यति ज्ञास्यति कोऽपि न सर्वे किं श्वः किं कुरु करिष्यति वदन्तु
अहं बहूनि वाक्यानि
पृच्छामि अस्तु अस्तु अहमेव पृच्छामि वदतु भगिनि
अहं बहूनि वाक्यानि वक्तुं न शक्ष्यामि
समीचीनं भगिनि अस्तु इदानीम् अहमेव पृच्छामि एकमेकं पृच्छामि श्वः भवान् अथवा भवती किं किं करिष्यति इति अस्तु अस्तु पश्यामः नरेश महोदय भवान् श्वः किं करिष्यति
श्वः अहं पाठं लेखिष्यामि
अस्तु धन्यवादः सरला भगिनी भवती श्वः किं करिष्यति
अहं श्वः नूतन CPR क्लास् मध्ये गमिष्यामि
अस्तु अस्तु गीता भगिनी भवती श्वः किं करिष्यति
श्वः उत्थास्यामि श्वः षड्वादने
उत्थास्यामि समीचीनं भगिनि
षड्वादने उत्थास्यामि नो उत्थास्य संस्कृतं पठिष्यामि
तत्र प्रायशः उत्थाय एव अस्ति इति मन्ये उत्थाय इति
उत्थाय
उत्थाय एव प्रायशः समीचीनं तस्य तत्र उत्थाय इति पदस्य कालभेदः नास्ति इति मन्ये तस्य अनन्तरम् अन्यत् किमपि करोति चेत् उत्थाय एव षड्वादने उत्थाय
संस्कृतपठनं
करिष्यामि करिष्यामि. समीचीनं भगिनि. वंशीसुधा भगिनी अग्रे.
अहं श्वः षड्वादने विद्याभगिन्याः व्याकरणकक्षां श्रोष्यामि.
समीचीनं भगिनि. अस्तु मेहुल् महोदय.
अहं श्वः सायङ्काले संस्कृतव्याकरणस्य वर्गे गमिष्यामि.
गमिष्यामि.
वर्गं
गमिष्यामि. वर्गे न वर्गं. वर्गं. नरेश महोदय.
अहं न जानामि अहं किं
करिष्यामि
श्वः. किं त्यक्ष्यामि त्यक्ष्यामि.
अस्तु महोदय. समीचीनं. समीचीनं. वेणुगोपाल महोदय.
अस्तु श्वः अहं चलनचित्रं द्रक्ष्यामि.
भवान् किं चलचित्रं द्रक्ष्यति गलिबोय्?
भानुचैतन्य महोदय, भवान् किं करोति श्वः? किं करिष्यति श्वः?
श्वः अहं क्रीडाशालां गमिष्यामि, तत्र पाठं पठिष्यामि.
क्रीडाशालां गमिष्यति तत्र
प्ले स्कूल्? आम्, तत्र पाठं पठिष्यामि.
पाठं पठिष्यामि. अस्तु. हर्षिता भगिनी वाक्यं वदति वा? श्वः भवती किं करोति इति, करिष्यति इति.
अहं मोदी महोदयः पुनरेकवारं पाकिस्ताने स्फोटकं विनाशनं कृतवान् इति समाचारं द्रश्यामि.
अस्तु भगिनि. अस्तु. प्रिया भगिनी वदति वा श्वः भवती किं करिष्यति इति?
श्वः अहं रामायणं प्रवचनं श्रोष्यामि. तदनन्तरम् अर्णाबस्य रिपब्लिक् चानल् अपि द्रक्ष्यामि.
अस्तु भगिनि. धन्यवादः. कः न उक्तवती? रघुपतिमहोदय वदति वा?
अहं श्वः मम मातुः गृहे गमिष्यामि. मातृगृहं गमिष्यामि, तत्र वेदाध्ययनं करिष्यामि.
समीचीनं महोदय. अस्तु. अस्तु, सर्वे उक्तवन्तः इति मन्ये. अस्तु, केवलम् अस्तु, अग्रे प्रायशः अद्य मास्तु, अग्रे सम्बोधनरूपाणि एव सन्ति इति. अस्तु, एकः घोषणा अस्ति अत्र. डे लैट् सेविङ्ग्स् इति अस्ति अमेरिकादेशे देशमध्ये. अतः वयं चिन्तित अत्र समयस्य किञ्चित् परिवर्तनं भवति. भारतदेशे ये छात्राः सन्ति तत्र किमपि समयस्य भेदः न भवति, किन्तु अत्र अग्रिमसप्ताहे न, तस्य अनन्तरं मार्च् 10th इति, टेन्त् मार्च्, आङ्ग्लभाषायां वदामि. सो आन् 10th मार्च् विल् हाव् डे लैट् सेविङ्ग्स्. सो आन् 10th मार्च् एण्ड् 12th मार्च्, सो स्टार्टिङ्ग् 12th मार्च् इन् दिस् क्लास् वी विल् स्टार्ट् क्लास् एन् अवर् लेटर्, सो देट् द टैमिङ्ग्स् इन् इण्डिया, बिकास् पीपल् इन् इण्डिया आर् गेटिङ्ग् अप् अर्लि. So if we have it at the same time, they will have to get up at 5 o'clock or 5:30. That's too early. So we're planning to have the class in America. It will start 1 hour later so that people in India don't have to wake up earlier. Is that fine for everyone?
It will be better. Yeah, it will be better.
So we'll have our class from 8:30 to 10 p.m. If we are in those who are in the US, and then those who are in India, there is no time change. Is this fine for everyone?
Ha ha. Samyak.
Okay. So I'll remind again next week. but so this will start only in the following week, so March 12th. Okay, so but just wanted to check with you. Astu, astu, atra viramama, अग्रिमे सप्ताहे मिलामः. अस्तु, सर्वेभ्यो नमस्कारः. प्रश्नः अस्ति चेत् पृच्छन्तु, नो चेत् विरमामः.
धन्यवादः.
धन्यवादः
महोदय. धन्यवादः. सम्यक् आसीत्.